धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकापन्दवश्चैव किमकुर्वत संचया। देहीनस्मिन्यथा देहे कौमरं यौवनं चरा तथा देहान्तरा प्रप्ति धीरस्था प्राणमुयति। मातृस्पर्शस्तु कौन्तेया शीतोष्णा सुखदुःखता आगमाभायिनो नित्या तं स्थितिक्षस्व भारत। नाचायते म्रियते वा कदाचि नायं भूत्वा पवितवान् भूय आचो नित्या शश्वतयं पुराणो नाहन्यते हन्यमने शरीरे। यज्ञशिष्टाशिना सन्तो मुच्यन्ते सार्वखिल्भिषै मुञ्चते ते त्वगं पापा ये पचन्त्यत्मकारणा। प्रकृते क्रियमाणानि गुणैः कर्मणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते। श्रीभगवानुवाच काम एष क्रोध एष राजगुणासमुद्भवा महाशनो महापाप्मा विद्यनाम् इह वैरिणम्। एवं परम्परा प्राप्तम् इमं रचर्षयो विचु सकलेनैह महाता योगो नष्टा परन्तपा। हरित्रनाय साधूनं विनशाय च दुष्कृतं धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। तद्वतः त्यक्त्वा देहं पुनार्चन्म नैति मम इति सोऽर्जुना। अद्विधिप्रणिपातेन परिप्रश्नेन सेवया उपातेक्ष्यन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः। उक्तरं यज्ञथापासां सर्वलोकमहेश्वरां सुहृदं सर्वभूतानां यत्त्वमं शान्तिमृच्छति। अपि सर्वेषां मत्कथेनान्तरात्मना श्रद्धवान् पच्यते यो मां सा मे युक्ता च मो मतः।